इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। भारतं पोलैंड देशौ स्वीय संबंधान रणनीतिक सहभागित्वेन परिवर्तयितुं निश्चयं कृतवन्तौ। वार्षानगरे स्वस्य पोलिश समकक्षेन डोनाल्ड टस्क इत्यनेन सह प्रतिनिधिमण्डलस्तरीय वार्तायां प्रधानमन्त्री नरेन्द्रमोदी इदमुक्तवान्। प्रधानमन्त्रिणा विश्वासः प्रकटितः यत् पोलैंडस्य समर्थनं भारत यूरोप संघयोः मध्ये च सम्बन्धं सुदृढं करिष्यति। श्रीमोदी अवदत् यत् उभौ पक्षौ सहमतौ यत् संयुक्तराष्ट्रसंघे अन्येषु अन्तर्राष्ट्रिय संस्थासु सुधारः वैश्विक समाह्वानान् सम्मुखीकर्तुं समयस्य आवश्यकता वर्तते। अस्मिन्नवसरे प्रवदन् प्रधानमन्त्री अवदत् यत् भारतं स्वमित्र देशैः सह यूक्रेन पश्चिम एशिया देशयोः शान्ति स्थिरतायै शीघ्रं च पुनर्स्थापनायै कूटनीति संवादयोः माध्यमेन यथासम्भवं समर्थनं दातुं सज्जः अस्ति। उभौ नेतारौ द्विपक्षीय सम्बन्धानां समीक्षां कृतवन्तौ, अपि च अनेक विषयेषु विचाराणाम् आदान प्रदानं कृतवन्तौ। द्वयोः पक्षयोः उपवेशने अन्येषां परस्पर रुचिमार्गाणाम् अन्वेषणस्य अवसरः प्राप्तः। पोलिश प्रधानमन्त्री डोनाल्ड टस्कः अवदत् यत् भौगोलिकभेदाः भिन्नाः परम्पराः च सन्ति, तथापि उभौ पक्षौ परस्परं सम्यक् अवगच्छतः। वार्ताहरान् सम्बोधयन् विदेशमन्त्रालयस्य सचिवः तन्मयलालः अवदत् यत् प्रधानमन्त्रिणः पोलैण्डदेशस्य यात्रा ऐतिहासिकः अतीव सफला चास्ति। स्वकीय द्वयोः राष्ट्रयोः यात्रायाः द्वितीये अन्तिमे च चरणे प्रधानमन्त्री नरेन्द्रमोदी यूक्रेनस्य राष्ट्रपतेः व्लोदिमिर जेलेंस्की इत्यस्य निमन्त्रणे अद्य कीवनगरं सम्प्राप्स्यति। द्विनवत्युत्तर एकोनविंशतितमे वर्षे यूक्रेन भारतयोः मध्ये राजनैतिक सम्बन्धाः संस्थापिताः आसन्। राजनैतिक सम्बन्धानां स्थापनानन्तरं प्रथमवारं भारतीय प्रधानमन्त्रिणः यूक्रेनस्य एषा यात्रा अस्ति। कीवनगरे प्रधानमन्त्री मोदी तत्रत्येन राष्ट्रपतिना व्लादिमिर जेलेंस्की इत्यनेन सह व्यापार निवेश शिक्षा सांस्कृतिक सम्बन्धानां विषये चर्चा करिष्यति। केन्द्रीय नागरिक उड्डयन मन्त्री राममोहन नायडू आरसीए उड़ान इत्यस्य अन्तर्गतं समुद्री विमान संचालनस्य मार्गदर्शिकाः प्रसारिताः। दिग्निर्देशे समुद्री विमान संचालनस्य संरक्षा सुरक्षयोः च प्राथमिकतां ददाति, तथा च प्रत्येकस्य हितधारकस्य दायित्वं स्पष्टतया रेखांकितं करोति। मार्गदर्शिका सम्पूर्णे राष्ट्रे समुद्रे विमानसञ्चालनस्य सञ्चालनादारभ्य नियामकसंस्थापर्यन्तं निर्बाध कुशलं च प्रसारणं सुनिश्चितं करोति। नवदिल्ल्याम् अस्मिन् अवसरे प्रवदन् नायडू महोदयः अवदत् यत् मार्गदर्शिकायाः उद्देश्यं देशस्य दूरस्थक्षेत्राणि संयोजयितुं सर्वेषां कृते सुलभयात्रां कर्तुं च अस्ति। अद्य देशे प्रथमः राष्ट्रियः अन्तरिक्षदिवसः आचर्यते। अस्मिन् वर्षे अस्य महोत्सवस्य विषयः अस्ति चन्द्रस्पर्शनेन जीवनस्पर्शनम्, भारतस्य अन्तरिक्षगाथा इति। राष्ट्रपति द्रौपदी मुर्मू नवदिल्लीस्थे भारतमण्डपम् इत्यत्र आयोजितस्य मुख्य कार्यक्रमस्य उद्घाटनं करिष्यति। अन्तरिक्षराज्यमन्त्री डॉ जितेन्द्रसिंहः अवदत् यत् गतवर्षे अस्मिन् दिने चन्द्रयानतृतीयस्य प्रक्षेपणसमये विक्रम लैंडर इत्यस्य चन्द्रमसि सुरक्षितं सरलं च अवरोहणं जातमासीत्। इति वार्ताः।